ॐ येन धौतागिरपुंसां विमलैः शब्दवारिभिः तमश्चाज्ञानजं भिन्नं तस्मै पाणिनये नमः हरिः ॐ श्रीगुरुभ्यो नमः
धन्यवादः भगिनी सर्वेभ्यो नमः सर्वेषां स्वागतम् अस्मिन् वर्गे अस्माकं प्रवर्तमानः विषयः अस्ति तत्र विधिलिङ्गकारः इति विधिलिङ्गकारस्य रूपद्वयम् अस्ति अर्थद्वयमस्ति एकमस्ति सम्भावनार्थे अन्यः अस्ति तत्र विध्यर्थे इति सम्भावनार्थस्य प्रयोगः कथं भवति इति वयं दृष्टवन्तः विधिलिङ्गकारस्य अग्रे पश्यामः तत्र विधिलिङ्गकारः रूपं तु समानमेव किन्तु केवलम् अर्थप्रयोगानुसारं तत्र अर्थभेदः भवति अत्र प्रथम अर्थः अस्ति तत्र सम्भावनार्थे इति अतः तत्र पुनस्मरणार्थं तत्र एकवारं सामान्यरूपम् इति तस्य पुनस्मरणं कुर्मः तदनन्तरं तत्र कथां पठामः वा अथवा तत्र अग्रे एव पाठे सरामः वा इति पश्यामः किन्तु एकवारं तत्र रूपस्य पुनस्मरणं भवतु यतोहि अभ्यासेनैव तत्र मनसि रूपस्य स्थापनं भवति अतः तत्र प्रिया भगिनी तत्र पट् धातोः रूपं यत् दत्तमस्ति तत्र त्रिनवतितमे पुटे एकवारं पठति वा भगिनि
पठेत् पठेतां पठेयुः पठेः पठेतं पठेत पठेयं पठेव पठेम
हा इति समीचीनम् इदानीं तदेव तत्र लिक् धातु उपयुज्य करोति वा
आं महोदय लिखेत् लिखेतां लिखेयुः लिखेः लिखेतं लिखेत लिखेयं लिखेव लिखेम
हा समीचीनं भगिनि उत्तमम् अस्तु शोभा भगिनी इदानीं तत्र नयति इति
आं महोदय नमस्ते महोदय श्रूयते वा
श्रूयते भगिनि
अस्तु नयेत् नयेतां नयेयुः नयेः नयेतं नयेत नयेयं नयेव नयेम
हा इति समीचीनम् उषा भगिनी इदानीं तत्र गच्छति गम् धातोः
अस्तु महोदय गम् धातुः गच्छे गच्छेतां गच्छेयुः गच्छेः गच्छेतं गच्छेत गच्छेयं गच्छेव गच्छेम इति भवति
समीचीनम् अस्तु पुनः एकवारं तत्र इदानीं तत्र वाक्यस्य निर्माणं कुर्मः अतः तत्र प्रिया भगिनी इदानीं तत्र अग्रे तत्र क्रियापदानि यानि सन्ति तत्र तिष्ठति पृच्छति खादति इति तत्र किमपि क्रियापदम् उपयुज्य एकवारं एकवाक्यं वदतु भगिनि प्रिया भगिनी तत्र विधिलिङ्गकारस्य सम्भावनार्थे
अस्तु महोदय श्वः बालकः मधुरं खादेत्
समीचीनं
सर्वाणि अस्तु आगामिसप्ताहे छात्राः ओदनं खादेयुः
खादेयुः समीचीनं हा अस्तु इदानीं तत्र उत्तमपुरुषे अपि एकं करोतु
अस्तु वयं सर्वे प्रश्नं पृच्छेम
हा वयं सर्वे प्रश्नं पृच्छेम समीचीनं भगिनि हा उत्तमम् अस्तु अग्रे उषा भगिनी इदानीं तत्र वाक्यं करोतु तत्र वाक्यत्रयं करोतु प्रथमपुरुषे अपि वचनं तत् परिवर्तनं कृत्वा सर्वदा एकवचनम् इति मास्तु
वयं भवतः वाक्यं पठे
इदानीं तत्र शू धातुः तत्र
अस्तु द्वितीयश्रेण्याम् अस्ति अस्तु
तदपि यदि स्वीकृत्य करोति चेत् चिन्ता नास्ति भगिनि अग्रिमे तत्र नव तत्र चतुर्नवतितमे पुटे अस्ति तत्र
शृणुयात्
हा शृणुयाम समीचीनं हा समीचीनम् अग्रे
आम् वैद्यः रोगिणम् औषधं दद्यात्
किन्तु वैद्यः पुनः वाक्यं वदतु
वैद्यः रोगिणम् औषधं दद्यात्
औषधम् इति किन्तु तत्र दद्यात् इति क्रियापदं कर्मपदं किमस्ति भवत्याः वाक्ये
औषधं
दद्यात् रोगिणमपि ददाति वा
न वैद्यः औषधं
किं भवति वेदभगिनी नमस्कारः नमस्कारः भगिनी नमस्कारः पुटसङ्ख्या अस्ति तत्र त्रिनवतितमे पुटे स्मः वयं त्रिनवतितमे अतः उषा भगिनी तत्र किं ददाति औषधं ददाति अथवा रोगिणमेव ददाति सः
न औषधं ददाति
अस्तु अतः रोगिणं ददाति इति न वक्तुं शक्नुमः खलु इदानीं भवती वदतु तत्र अहं
रोगिणाय
बाल तत्र रोगी प्रातिपदिकं किम् अस्ति
रोगिणं नपुंसकलिङ्गे अस्ति चेत् रोगिणाय इति भवति महोदय
इति वा अस्तु अहं तत्र प्रातिपदिकम् एकवारं श्रोतुम् इच्छामि प्रातिपदिकं किं रोगिणः इति वा अथवा रोगिण्येव
प्रातिपदिकम् आम्
एव प्रातिपदिकमिति अहं मन्ये
अतः नकारान्तपदं खलु
रोगिणी
वा अथवा रोगिन् इति अस्ति वा न जानामि
रोगिणीपदं वा आं रोगिन् इति अस्ति रोगी इति प्रथमा विभक्ति
अतः रोगिणी इति रोगिणी समीचीनं धन्यवादः
वैद्यः रोगिणी औषधं दद्यात्
समीचीनं भगिनि इदानीं तत्र किमस्ति रोगिणी तत्र वयं जानीमः खलु हलन्तपदानां तत्र तृतीया चतुर्थी पञ्चमी षष्ठी सप्तमी भवती जानाति खलु
भवान्
शब्दस्य रूपाणि तत्र किमस्ति तृतीया किमस्ति
भवत्
शब्दस्य
भवान्
तत्र भवत भवता तृतीया एकवचने किमस्ति
भवता
चतुर्थी किमस्ति भवते पञ्चमी षष्ठी किमस्ति भवतः
भवत्या
सप्तमी
भवत्या
सप्तमी न भवती
भवती महोदय
भवती नदीवत् नद्याम् अस्ति किन्तु भवत् शब्दस्य सप्तमी अस्ति भवती
सम्यक्तया न शृणोमि महोदय भवतः
सम्यक्तया न शृणोति वा
आम्
इदानीं भगिनि
मन्दमन्द
सम्यक् अस्ति सम्यक् अस्ति मम पार्श्वे
वाल्यूम् है करोमि अस्तु महोदय
अस्तु अन्येषां कृते समीचीनमस्ति वा
श्रूयते
वा
सम्यक् अस्ति महोदय
अस्तु अस्तु सम्यक् अस्ति अस्तु धन्यवादः तत्र नूतन तत्र दूरवाण्या अहम् अद्य वर्गं करोमि अतः तत्र कथम् अस्ति इति प्रथमवारम् अस्ति अतः तत्र सम्यक् ज्ञानं नास्ति अस्तु तर्हि अतः तत्र समीचीनम् उषा भगिनी वेदाभगिनी इदानीम् अस्तु वेदाभगिनी अग्रे वदतु किन्तु प्रथमतया तत्र शोभाभगिनी अग्रे तत्र वाक्यत्रयं
त्रिनवति पृष्ठे अस्ति वा महोदय
सत्यं भगिनि तत्र त्रिनवतितमपुटे क्रियापदानि यानि सन्ति तान् तत्र तानि उपयुज्य वाक्यत्रयं तत्र विधिलिङ्गकारस्य प्रयोगः तत्र चिन्तयतु तस्मिन् समये तत्र शोभा भगिनी वाक्यानि वदति
महोदय अन्यत् एकम् अस्ति महोदय अहं
अन्यत् अपि अस्ति वा अस्तु अन्तिमवाक्यं
तौ श्लोकान् पठेताम्
हा तौ श्लोकान् पठेतां. समीचीनम्, उत्तमम्. अस्तु, अग्रे शोभा भगिनी इदानीं. धन्यवादः भगिनी.
आं महोदय. अस्तु, तत्र वयम् अस्तु, अहं शीघ्रं गच्छामि चेत् नगरं सायङ्काले प्राप्नु अहम् अस्ति. अस्तु, तत्र एकनिमिषं महोदय. शक्नुयात् इति अस्ति, प्राप्नुयाम् इति भवति.
समीचीनं, हा, प्राप्नुयां. समीचीनम्, अस्तु.
अपि च तत्र भवती भवत्यः इति भवति, भवत्यः शीघ्रं गच्छन्ति चेत् नगरं सायङ्कालपर्यन्तं प्राप्नुयुः.
प्राप्नुयुः, शक्नुयुः, प्राप्नुयुः.
अहं भवत् भवान्
भगिनि कुत्र अस्ति
अग्रिमे पुटे
अग्रिमे पुटे वा?
तत्र शक् धातुः इति टेबल् अस्ति, आप्नोति, आप् इति धातुः अपि भवति. तत्र अधुना यु द्विवचने युवां शीघ्रं गच्छतः नास्ति, तत्र गच्छथ इति अस्ति किल महोदय, गच्छथ चेत् नगरं सायङ्कालपर्यन्तं प्राप्नुयातम्.
पठति, पठतः, पठन्ति, पठसि, पठतः, पठथ, पठामि, पठा,
गच्छतः चेत् किल महोदय, गच्छतः चेत् नगरं सायङ्कालपर्यन्तं प्राप्नुयातम्.
प्राप्नुयातम्, अस्तु. समीचीनं भगिनि, अस्तु, धन्यवादः. इदानीं वेदा भगिनी.
आं महोदय, आप्नोति, शृणोति वा? शृणोति
न, यत्किमपि तत्र त्रिनवतितमे पुटे अपि यत् यानि क्रियापदानि सन्ति तानि अपि उपयुज्य तत्र भवत्याः तत्र इच्छा
पृच्छति. ओके, पृच्छति, खादति, सरलं,
अस्तु, सरलमेव वदतु.
खादति, खादति, तस्य किं वदामि, एकवचन बहुवचनरूपं वदामि वा? किं
किमपि तत्र वाक्यत्रयं वदतु, किन्तु सर्वदा प्रथमपुरुषे एकवचने अथवा उत्तमपुरुषे एकवचने मास्तु, तावदेव.
खादति, तत्र खादति तस्य द्विवचनरूपं खादति, खादेतां वा, खादेतां, खादेतां. तत्र युवाम् अन्नं खादेतां.
युवाम् अस्ति चेत् तत्र पुरुषः कः इदानीं, प्रथमपुरुषः वा, मध्यमपुरुषः वा?
मध्यमपुरुषः वा? मध्यमपुरुषे.
अस्तु,
खादेतं, खादेतं,
समीचीनम्, अस्तु, अस्तु,
मध्यमपुरुषे खादेतम् अन्नं, खादेतं यूयम् अन्नं खादेत, वयम् अन्नं खादेम, अहम् अन्नं खादेयम्, अहं खादेयम्.
अस्तु, अस्तु, समीचीनं भगिनि, अस्तु, उत्तमम्. अस्तु, तर्हि तत्र इदानीम् अग्रे गन्तुं तत्र इच्छा का अस्ति सर्वेषां कृते? तत्र कथां पठामः वा, वयं कथां पठेम, अथवा तत्र पाठं, साक्षात् पाठं पठेम? किं
पाठं पठेम महोदय, यदि
किं कुर्याम, किं कुर्याम,
तर्हि कथां पठामः महोदय.
किन्तु तत्र सर्वे न सन्ति भगिनि, तत्र न सन्ति चेत् प्रायशः कथायाः पठनं प्रायशः उत्तममिति मन्ये, यतोहि तत्र पाठ अग्रिमे वर्गे यदि ते आगच्छन्ति तत्र पाठः कृतः चेत्. अस्तु, तत्र अस्तु यत् 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 भवत्यः इच्छन्ति तद् अहं कर्तुं सिद्धः अस्मि.
कथां पठामि.
अतः भवत्यः एव तत्र चर्चयित्वा वदन्तु.
कथां पठामः महोदय?
कथां पठामः
इति वा? अस्तु. अतः तत्र विकल्पद्वयमस्ति. तत्र भगवती विश्वासः इति कथा अस्ति. कतरः बुद्धिमान् इति अस्ति. तत्र भगवती विश्वासः इति ईमेल् द्वारा ईमेल् मध्ये अस्ति भगिनि. तत्र वि शेल् रीड् दिस् स्टोरि आर् दिस् अदर् स्टोरि इति.
पुटसङ्ख्या किम् अस्ति महोदय?
पुटसङ्ख्या नास्ति भगिनि. ओ तत्र पी डि एफ् मध्ये वा भगिनि? पुटसङ्ख्या अस्ति भगिनि 18 इति चिन्तयामि.
कुत्र कुत्र अस्ति महोदय कथा? तत्र ट्यूस्डे क्लास् ब्लाक् बोर्ड् तत्र वा?
न न उपरि उपरि आदौ तत्र ईमेल् यदि पश्यति चेत् वाक्यत्रयम् आदौ
अस्ति.
तत्र तत्र प्रथमं क्लिक् करोतु भगिनि.
ओके.
हा कुटसङ्ख्या अस्ति तदेव. तत् सम्यक् अस्ति वा? सा कथा सम्यक् अस्ति वा? अस्तु
प्रिया
भगिनि. अस्तु अस्तु तर्हि तत्र अस्तु. शोभा भगिनी भवती एव आरम्भं करोति वा तत्र भगवती विश्वासः इति कथा?
आं महोदय. तत्र परिवर्तनं करणीयं वा क्रियापदस्य?
न न एकवारं तत्र एकवारं कथायाः पठनं कुर्मः. तदनन्तरं तत्र विधिलिङ्गकारस्य स्थापनं कुर्मः. किन्तु प्रथमतया कथा का अस्ति इति तत्र तदपि भवतु खलु.
कश्चन ग्रामः आसीत्. ग्रामस्य बहिर्भागे काचित् महिला स्वपुत्रेण सह निवसति स्म. तस्याः पतिः पूर्वमेव दिवङ्गतः आसीत्. महिलायाः गृहस्य समीपे महत् वनम् आसीत्. तस्याः पुत्रेण राघवेण गुरुकुलं गन्तव्यं चेत् वनम् अतिक्रम्य एव गन्तव्यं भवति स्म. अनन्यगतिकतया सह वनमार्गेण एव गुरुकुलं गच्छति स्म. एकदा
पठतु भगिनि पठतु. तत्र प्रायशः तत्र आगच्छति इति तत्र परिच्छेदद्वयं तावत्पर्यन्तं पठतु भगिनि.
अस्तु महोदय. एकदा राघवः मातरम् उक्तवान्, अम्ब प्रतिदिनं मया वनमार्गेण एव गुरुकुलं गन्तव्यम्. मार्गे मम भयं भवति, किं करोमि इति. तदा माता उक्तवती, वत्स यदि भयं भवति तर्हि गमनसमये हे गोपाल इति उच्चैः आह्वयन् गच्छतु. गोपालः भवता सह गुरुकुलपर्यन्तमपि आगच्छति इति.
समीचीनं भगिनि. अस्तु. एषा कथा प्रायशः प्रसिद्धा कथा अस्ति, किन्तु संस्कृतभाषायाः अपि तत्र अभ्यासः भवति. अस्तु अग्रे तत्र वेदा भगिनी अग्रे पठति वा?
आं महोदय एकनिमिषम्. अनन्तरदिने राघवः वनमार्गेण गुरुकुलं प्रति प्रस्थितवान्, परन्तु मध्यमार्गे तस्य भयम् आरब्धम्. तदा सः मातुः वचनं स्मृत्वा हे गोपाल इति उच्चैः आहूतवान्. किञ्चित् समयानन्तरं राघवस्य समवयस्कः कुत्र अस्ति कश्चित् बालकः कुतश्चित् तत्र आगतवान्. सः राघवं दृष्ट्वा किमर्थं माम् आहूतवान् इति पृष्टवान्. तदा राघवः, अहम् अतीव भीतः अस्मि. मम माता उक्तवती अस्ति यदा भवान् भीतः भवति तदा गोपालम् आह्वयतु, सः भवता सह आगच्छति इति. अतः अहं भवन्तम् आहूतवान् इति उक्तवान्. गोपालः, भवान् भीतः मा भवतु, अहं प्रतिदिनं भवता सह आगमिष्यामि इति उक्तवान्. तेन सह गुरुकुलपर्यन्तम् आगतवान् अपि. राघवः सायं गृहम् आगत्य मात्रे सर्वं निवेदितवान्. ततः प्रतिदिनं गोपालः राघवेन सह गुरुकुलपर्यन्तं गच्छति स्म. प्रत्यागमनसमये गृहपर्यन्तं तं प्रापय्य गच्छति स्म.
धन्यवादः भगिनि, समीचीनं.
धन्यवादः.
अग्रे तत्र प्रिया भगिनी अग्रे पठति वा, अन्य कोऽपि अस्ति वा तत्र? अस्तु अस्तु, प्रिया भगिनी पठतु भगिनि.
गच्छता कालेन राघवगोपालयोः मित्रत्वं प्रवृद्धम्. अत्रान्तरे राघवस्य गुरोः पुत्रस्य जन्मदिनं सन्निहितम् आसीत्. तदा तस्मिन् गुरुकुले ये छात्राः पठन्ति ते सर्वे अपि गुरुपुत्राय किमपि उपायनं दातुम् इष्टवन्तः. राघवः अपि मातरम् उक्तवान्, अम्ब, आचार्यस्य पुत्रस्य जन्मदिनम् अस्ति, तदर्थं सर्वे किमपि उपायनं यच्छन्ति, मया अपि किमपि दातव्यं खलु इति. माता खेदेन, पुत्र, वयं किं दातुं शक्नुमः, यतः वयं तु निर्धनाः इति उक्तवती. ततः राघवः तूष्णीं शालां प्रस्थितवान्. मार्गे मिलितः गोपालः म्लानवदनं राघवं दृष्ट्वा, भोः मित्र, किम् अभवत्, किमर्थं व्याकुलः अस्ति इति पृष्टवान्. राघवः खेदस्य कारणम् उक्तवान्. तदा गोपालः, भवान् अत्र एव तिष्ठतु, अहम् इदानीमेव आगच्छामि इत्युक्त्वा कुत्रापि गतवान्. पुनः प्रत्यागमनसमये तस्य हस्ते दध्ना पूरितं लघुपात्रम् आसीत्. तत् पात्रं राघवाय दत्त्वा गोपालः, एतत् पात्रं भवतः गुरोः पुत्राय ददातु इति उक्तवान्. तस्मिन् दिने सर्वे अपि छात्राः तस्मिन् दिने सर्वे अपि छात्राः गुरुपुत्राय स्वेन आनीतम् उपायनं दत्तवन्तः. राघवः अपि दधिपात्रं तस्मै दत्तवान्. अनन्तरं सर्वे भोजनार्थम् उपविष्टवन्तः, परन्तु भोजने सर्वेषां कृते दधि अपर्याप्तम् अभवत्. तदा आचार्यः राघवेन आनीतं दधि स्मृत्वा तत् आनयन्तु इति उक्तवान्. तत् आनीय परिवेषणम् आरब्धवन्तः.
धन्यवादः भगिनि. अस्तु, अग्रे तत्र उषा भगिनी अग्रे पठति वा?
आं महोदय.
अन्य कोऽपि अस्ति तत्र यदि तत्र परिचयं कर्तुम् इच्छन्ति चेत्?
आम्, नमस्ते महोदय, श्रीप्रिया अस्मि, क्षम्यतां महोदय.
ओ, श्रीप्रिया भगिनी, नमस्कारः भगिनी. तत्र भगिनी तत्र ईमेल् द्वारा प्रेषितं तत्र कथा प्रेषिता कथा अस्ति भगिनी, तत्र वि विल् रीड् दि स्टोरि इति, तत्र प्रथमा कथा भगवती विश्वासः इति अस्ति भगिनि. धन्यवादः भगिनि. अस्तु अस्तु, उषा भगिनी अग्रे.
परम् अहो आश्चर्यं, यथा 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 तस्मात् पात्रात् दधि स्वीकृतं तथा तथा पुनः तत् पूर्णं भवति स्म. तद् दृष्ट्वा सर्वे अपि विस्मिताः अभवन्. गुरुः राघवम् आहूय, राघव, केन दत्तम् एतत् दधिपात्रम् इति पृष्टवान्. राघवः, एतत् पात्रं वने स्थितः मम स्नेहितः गोपालः दत्तवान् इति उक्तवान्. आश्चर्यचकिताः ते सर्वेपि वनं गत्वा गोपालम् आहूतवन्तः, परन्तु गोपालः न आगतवान् एव. राघवः अपि उच्चैः गोपाल गोपाल इति आहूतवान्. गोपालः न दृष्टः एव, परं गोपालस्य कण्ठध्वनिः श्रुतः. भोः बालकाः, राघवाय दधिपात्रम् अहमेव दत्तवान् इति सः अशरीरवाण्या उक्तवान्. तत् श्रुत्वा विस्मिताः सर्वे अपि राघवं भृशम् अभिनन्दितवन्तः.
समीचीनं कुर्मः, धन्यवादः. अस्तु तर्हि, अतः तत्र कथायाः सारांशं किम् इति, तत्र सारांशः कः इति सर्वैः अवगतः इति मन्ये, खलु?
आं महोदय.
एषा कथा प्रसिद्धा इति मन्ये. अस्तु तर्हि, अतः तत्र अग्रे सरामः. इदानीं तत्र पङ्क्तिशः दृष्ट्वा तद् एकवारम् अर्थः कः इति पश्यामः, तदनन्तरं तत्र परिवर्तनम् अपि कर्तुं कुत्र कुत्र परिवर्तनं कर्तुं शक्नुमः इति अपि पश्येमः. अस्तु तर्हि तत्र अग्रे तत्र हा वेदा भगिनी तत्र आरम्भं करोति वा भगिनि?
म्यूट् मध्ये अस्ति, सोरि महोदय. कश्चन ओन् सेकेण्ड् लास्ट् इट् इतर् वेरि फ्लाट् लास्ट् दट् स्टोरि कापे हियर् इट् इस्. कश्चन ग्रामः आसीत्, कोऽपि इमं कश्चन ग्रामः आसीत् इत्युक्ते निश्चित् नास्ति ग्रामः आसीत्. ग्रामस्य बहिर्भागे काचित् महिला स्वपुत्रेण सह निवसति स्म. ग्रामस्य बहिर्भागे इत्युक्ते किं वदामि, बहिर्भागे औट्सैड् किं वदामि संस्कृते, बहिः ग्रामस्य बहिः काचित् महिला कापि महिला स्वपुत्रेण सह निवसति स्म. तत्र कापि महिला पुत्रसह तत्र वसति, पुत्रसह तत्र पुत्रेण सह तत्र वसति. तस्याः पतिः पूर्वमेव दिवङ्गतः आसीत्. तस्याः पतिः इत्युक्ते महिलायाः पतिः पूर्वमेव दिवङ्गतः इत्युक्ते
मृतः आसीत्. समीचीनम्. अग्रे
महिलायाः गृहस्य समीपे महत् वनम् आसीत्. महिलायाः गृहस्य समीपे तस्याः गृहस्य समीपे एकं बृहत् वनम् आसीत्.
हा अस्तु, इदानीं तत्र महत् इति विशेषणमस्ति वनं पदस्य. इदानीं तत्र ग्रामः आसीत् चेत् तत्र महत् स्थाने किं भवति विशेषणं? ग्रामः अस्ति चेत्
ग्रामः इति चेत् महत् तस्य ग्रामं महत् किं वदामि, महत् शब्दस्य महान्
भवत् शब्दः किं भवति प्रथमाविभक्ति एकवचने
भवत् भवान् भवन्तौ भवतः.
अस्तु, इदानीं महत् शब्दः अस्ति चेत् किं भवति? तदेव महान् ग्रामः.
महान् ग्रामः.
नदी अस्ति चेत् महती नदी.
महती नदी
इति भवति. अस्तु समीचीनम्. अग्रे
तस्याः पुत्रेण राघवेण गुरुकुलं गन्तव्यं चेत् वनम् अतिक्रम्य एव गन्तव्यं भवति स्म. तस्याः महिलायाः पुत्रः राघवः अस्ति, सः गुरुकुलं गन्तव्यं चेत्
सः गुरुकुलं गन्तव्यं चेत् इति न वदामि,
न न न सः
तत्र
सः गुरुकुलं गन्तुम् इच्छति चेत् वनस्य वनम् अतिक्रम्य या वनस्य किं वदामि तत् अतिक्रम्य इत्युक्ते किमस्ति महोदय, अतिक्रम्य
वने प्रवेशं कृत्वा
सः वने प्रवेशं कृत्वा एव
पुनः तत्र
गुरुकुलं
बहिः अपि तत्र अतः तत्र वनमार्गः एकः एव मार्गः अपि तत्र राघवेण गुरुकुलं गन्तव्यम् इति अस्ति. तत्र गन्तव्यं तत्र
कर्मणि प्रयोगमस्ति
चेत् तत्र हा अतः तत्र तृतीया एव भवति. अतः तत्र राघवेण इति
राघवेण
तत्र भवती सम्यक्तया उक्तवती. तत्र यदि सः गुरुकुलं गन्तुम् इच्छति तर्हि तत्र सः वनमार्गेण एव सः एकमेव मार्गः अस्ति, तेन एव सः गन्तुं शक्नोति. अन्यः मार्गः तत्र नास्ति
नास्ति
अग्रे
अनन्ये गतिकतया सः वनमार्गेण एव गुरुकुलं गच्छति स्म अनन्यगतिकतया अनन्यगतिम् इत्युक्ते कोऽपि अन्यमार्गः नास्ति तदेव
सः इदानीं तत्र प्रातिपदिकं वदतु अनन्यगतिकतया इति प्रातिपदिकं
गतिकतया चतुर्थीविभक्ति तु गतिकतया अनन्य गति गतिक किं वदामि रदि अनन्यगतिका गतिकः वा न गतिकतया
तया तया तत्र तया अस्ति चेत् तत्र विभक्तिका
तया रमाया एवं गतिकता वा अनन्यगतिकता वा
समीचीनम् अनन्यगतिकता भावः अनन्य अनन्य गतिः इति या स्थितिः अस्ति तस्य भावः अनन्यगतिकता इदानीम् अनन्यगतिकतया इति तस्य तस्य तृतीयाविभक्तिरूपम्
अनन्यगतिकतया सः वनमार्गेण अनन्य कोऽपि गति नास्ति तदेव सः वनमार्गम् एव वनमार्गेण एव गुरुकुलं गन्तुं शक्यते
गुरुकुलं गन्तुं शक्नोति शक्यते इति तत्र पुनः तत्र कर्मणि प्रयोगः मास्तु भवान् गुरुकुलं केवलं वनमार्गेण एव गन्तुं शक्नोति इदानीं तत्र वनमार्गेण इति तृतीया अस्ति
तृतीया
अपि अनन्यगतिकतया अपि तृतीया अस्ति कः भेदः
अनन्यगतिकतया वनमार्गेण सः एव गुरुकुलं गच्छति स्म तत्र विशेषणविशेषम् अस्ति मनुवदे अनन्यगतिकतया वनमार्गेण वा न न न न तत्र नास्ति
तत्र विशेषणविशेषभावः अस्ति चेत् नियमः कः
न न
समानलिङ्गं समानलिङ्गं समानविभक्ति समानवचनम्
इति
वनमार्गः इति पुल्लिङ्गपदम् अनन्यगतिकतया तु स्त्रीलिङ्गम् विशेषणविशेषभावः न भवति तत्र नास्ति नास्ति तत्र नास्ति अतः तत्र भिन्नमस्ति अत्र अस्तु तत्र हा तत्र अन्य कोऽपि तत्र अन्य मधुमहोदय नमस्कारः
नमस्कारः महोदय
तत्र वयं नमस्कारः तत्र ईमेल् द्वारा प्रेषिता कथा अस्ति महोदय तत्र तां कथां पठामः प्रथमकथा तत्र ईमेल् मध्ये आरम्भे एव अस्ति वि विल् रीड् दि स्टोरि इति तत्र प्रथमा कथा भगवती विश्वासः इति अस्तु तत्र इदानीम् अन्य कोऽपि वदतु तत्र उषा भगिनी तत्र भेदः कः तत्र अनन्यगतिकतया इति तृतीयविभक्तिः अस्ति वनमार्गेण अपि तृतीया अस्ति अस्मिन् वाक्ये हा किमर्थं तृतीया अस्ति अपि किञ्चित् वदतु अनन्यगतिकतया इति तृतीया अस्ति वनमार्गेण अपि तृतीया अस्ति
एव गुरुकुलं गच्छति स्म
तत्र तृतीयविभक्तेः प्रयोगद्वयमस्ति खलु तत्र कः भेदः अथवा समानप्रयोगः वा किम्
वनमार्गं नपुंसकलिङ्गे अस्ति वनमार्गेण अनन्यगति
मार्गः इति पुल्लिङ्गपदमस्ति लिङ्गं त्यजतु किन्तु तत्र प्रयोगः समानप्रयोगः वा वनमार्गेण एव गुरुकुलं गच्छति स्म किमर्थं तत्र तृतीया अस्ति
सः तस्य भावः अस्ति वा अनन्यगतिकतया
अनन्यगतिकतया भावः अस्ति अनन्यगतिकता इति भावः किन्तु तृतीया अस्ति तृतीया किमर्थम् इति प्रश्नः अस्तु तत्र प्रिया भगिनी
महोदय मम चिन्तनमस्ति तत्र किमपि अन्यसाधनं नास्ति ततः तृतीया इति अस्ति साधने तृतीया
तत्र वनमार्गेण इति तत्र माध्यमं वनमार्गेण इति माध्यमं केन हस्तेन खादामि इति तत्र हस्तेन तादृशं तत्र माध्यमम् अस्ति अपि अनन्यगतिकतया इति तत्र कारणम् इति
कारणं
कारणं तत्र अन्यत् किमपि नास्ति तेन कारणेन अन्यः गतिः नास्ति इति कृत्वा इति तत्र कारणतृतीया इति अपि तत्र वक्तुं शक्नुमः इति मन्ये.
अस्ति अन्य कोऽपि मार्गः,
तत्र वनमार्गः तत्र माध्यमम् अथवा साधनम् इति भवितुं शक्नोति, किन्तु अनन्यगतिकतया तत्तु साधनं नास्ति तत्र, खलु? तत्र तृतीया अस्ति किमर्थम् इति तत्र भेदः अस्ति. अस्तु तर्हि समीचीनम्. अस्तु अग्रे सरामः तर्हि. तत्र अग्रे शोभा भगिनी अग्रे पठति वा?
आं महोदय. एकदा राघवः मातरम् उक्तवान्. अस्तु, तत् पूर्णं परिच्छेदम्. अम्बा, प्रतिदिनं मया वनमार्गेण एव गुरुकुलं गन्तव्यम्. मार्गे मम भयं भवति, किं करोमि इति. हा, तर्हि राघवः एकदा एकस्मिन् दिने मातरं वदति यत् सः प्रतिदिनं, यतोहि सः प्रतिदिनं वनमार्गेण एव गन्तव्यं भवति, गन्तव्यं मास्तु इति. अस्तु, मार्गेण एव
गन्तव्यमस्ति चेत् तत्र तृतीया अस्ति. सः इति अस्ति चेत् गन्तव्यमपि न.
मया
यत् प्रतिदिनं सः वनमार्गेण एव गच्छति, गुरुकुलं गच्छति, तर्हि तत्र तस्य भीतिः भवति. अतः किं करोमि इति पृच्छति मातरम्. तदा माता उक्तवती, वत्स, यदि भयं भवति तर्हि गमनसमये हे गोपाल इति उच्चैः आह्वयन् गच्छतु. गोपालः भवता सह गुरुकुलपर्यन्तम् अपि आगच्छति इति. तत् श्रुत्वा माता पुत्रं वदति यत् सः प्रतिदिनं.
एकमेकं स्वीकृत्य किञ्चित् वदतु. यदि भयं भवति तर्हि.
हा, तदा माता पुत्रं वदति, वत्स, यदि भयं भवति तर्हि गमनसमये. अस्तु, यदा यदि भयं भवति तदा गमनसमये एव भवति. तत्र गमनसमये हे गोपाल इति स्मरणं करोतु भगवतः, अपि च तम् आह्वयतु, तदनन्तरं गच्छतु इति.
किन्तु तद् आह्वयन् इति शत्रुन्तरूपम् अस्ति खलु भगिनि, अतः तत्र करोतु तदनन्तरम् इति नास्ति खलु. आह्वयन् इति शत्रुन्तरूपं तत्र केवलम् एकवारं तत्र स्मरति इति तस्य शत्रुन्तरूपं स्मरयन् इति न
स्मरन् गच्छतु इति. गोपालं भगवान् गोपालं स्मरन् गच्छतु इति भवति वा?
किन्तु स गोपालं समीचीनं, किन्तु भगवान् इति तस्य
द्वितीयवाक्ये किमस्ति?
भगवन्तं गोपालं
स्मरन् गच्छतु.
गच्छतु
इति.
किन्तु तत्र समीचीनमेव, किन्तु अत्र उच्चैः तत्र
उच्चैः
अस्ति, किन्तु स्मरणपि समानमेव. अस्तु,
कर्तुं शक्नुमः.
स्मरन् गच्छतु. अस्तु, समीचीनम्.
उच्चैः वदतु इति. तर्हि उच्चैः भगवन्तं स्मरणं कुर्वन् गच्छतु इति.
किन्तु तत्र अस्तु, किन्तु तत्र अथवा भगवतः नामं वदन् गच्छतु.
महोदय, भगवतः नाम वदन् गच्छतु.
परन्तु भगवतः भगवान् इति स्पष्टं नास्ति तत्र. केवलं सः वदति, सा वदति हे गोपाल इति. गोपाल इति
भगवन्तं
नाम एव वत्स न जानाति किन्तु वयं
जानीमः माता अपि तदेव वदति इति मन्ये किमपि गोपालस्य नामस्मरणं करोति चेत्
वदति परन्तु पुत्रः तत् अर्थं न जानाति तदेव अहं चिन्तयामि
किन्तु भगिनी तत्र अर्थः न जानाति चेत् न प्राप्नोति
बालकः अर्थं न जानाति तदेव गोपाल कोऽपि आयाति तत्र तं वदामि
अस्तु अस्तु भगिनि तत्र यत् भवती वक्तुम् इच्छति समीचीनमेव नाम तत्र सः साक्षात् भगवन्तम् आह्वयति इति तत्र बालकः प्रायशः न जानाति
बालकः न जानाति
इति वक्तुम् इच्छति वा भगिनि भगिनि
आम् आं महोदय
तत्र हा तत्र अस्तु तत्र इदानीं शुभा भगिनी अपि न वेदा भगिनी इदानीं तत्र दिदिरिङ्लकारस्य सम्भावनार्थे वदतु वाक्यं बालकः न तत्र जानाति इति पदस्य तत्र किमस्ति दिदिरिङ्लकारः बालकः
जानाति जानेत्
अन्य कोऽपि
वदति वा
जानीयात् इति अस्ति
हा बालकः न जानीयात् यत् गोपालः इति तत्र भगवतः नाम इति प्रायशः तत्र बालकः न
जानीयात्
इति भवत्याः आशा आसीत् वा
आमां महोदय तदेव
अस्तु 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 शुभा भगिनी भवत्याः चिन्तनं किम्
अहम् उक्तवती
बालकः तत्र बालकः गोपालः तत्र एव भगवान् इति प्रायशः न जानाति इति तत् समीचीनं वा तत् अङ्गीकरोति वा किम्
तत्र किं परिवर्तनं कृत्वा
कथानुसारं तत्र
अस्तु अस्तु तर्हि
यतोहि तत्र सः केवलं तत्र गोपालः कः इति सः न जानाति खलु केवलं गोपालः इति कश्चन अस्ति इति एव जानाति किन्तु सः कः इति प्रायशः तस्य सम्यक् ज्ञानं नास्ति इति मन्ये खलु
तदेव भवेत् महोदय तर्हि
वाट् ऐ मेन्ट् इस् मतलब् दट्
भगिनि 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 आङ्ग्लभाषा मास्तु आङ्ग्लभाषा मास्तु
क्षम्यतां गोपाल इति माता पुत्रं वदति गोपाल हे गोपाल इति वदतु आह्वयतु परन्तु तत्र भगवतः शब्दं न उपयोगं करणीयम् इति मम चिन्तनमस्ति भगिनि
अतः एव इति एव अहमपि अवगतवान् भगिनि अतः एव अहम् उक्तवान् तत्र गोपालः इति भगवतः नाम इति प्रायशः सः बालकः न जानीयात् अस्तु समीचीनमेव अस्तु
अस्तु अतः अस्तु भगिनि
अस्तु अतः तत्र भगवत वयं जानीमः वयं वक्तुं शक्नुमः तत्र मातायाः इच्छा आसीत् भगवतः नाम बालकः वदति चेत् समीचीनं भवति इति किन्तु बालकः तद् न जानीयात् इति अपि तत्र अस्माकं ज्ञानम् अस्ति अस्तु तर्हि अस्तु
अभवत् महोदय
किं भगिनि
अन्ते यदि दधि
अग्रे सर्वम् अस्ति किन्तु इदानीं स्पष्टमस्ति बालकः न जानाति तत्र
महोदय
गोपाल नाम भगवान् इति सः न जानाति इति एतत्तु स्पष्टमस्ति खलु इदानीं
गोपालस्य ध्वनिः श्रुत्वा
इदानीम् अस्तु इदानीं तत्र त्यजामः अग्रे सरामः अस्तु तत्र अन्य कोऽपि आसीत् तत्र नाम दृष्टवान् किन्तु इदानीं तत्र प्रायशः नास्ति अस्तु अस्तु तर्हि शोभगिनी अग्रे तत्र वाक्यं परिच्छेदं पूरयतु तत्र
तत्र गोपालः भवता सह गुरुकुलपर्यन्तमपि आगच्छति इति तर्हि यदा भवान् तादृशम् उच्चैः नाम तत्र वदति तदा सः गोपालः भवता सह एव चलति अपि च गुरुकुलपर्यन्तं भवता सह चलन् आगच्छति इति
हा अस्तु तत्र गोपालः यदि भवान् तत्र आह्वाय आह्वानं करोति सः गोपालः आगच्छति अपि आगत्य सः भवता सह गुरुकुलपर्यन्तमपि तत्र आगच्छति तत्र भवता सह एव तिष्ठति सः अतः वनमार्गेण गन्तुं भीतिः मास्तु इति माता वदति
एकमेव
नास्ति सः इति सा इति सा वदति अस्तु समीचीनं भगिनि अस्तु हा धन्यवादः अस्तु
धन्यवादः
मधुमहोदय प्राप्तं वा कथा प्राप्तं वा मधुमहोदय
आं महोदय परन्तु कथाः भिन्ना अस्ति पी डि एफ़् मध्ये भगवान्
तत्र पेज् 18 पेज् 18 भगवती विश्वासः इति कथा
महोदय प्राप्तवान्
तत्र तृतीय अथवा चतुर्थपरिच्छेदः इदानीम् एव पठितः अग्रे इदानीं सरामः तत्र अनन्तरदिने इति अस्तु तत्र प्रिया भगिनी अग्रे पठति वा तदनन्तरं श्रीप्रिया भगिनी अग्रे भवती पठतु
आमां महोदय
अस्तु इदानीं प्रिया भगिनी
अनन्तरदिने राघवः वनमार्गेण गुरुकुलं प्रति प्रस्थितवान् अत्र प्रतियोगे द्वितीया विभक्तिः अस्ति तत्र राघवः कुत्र प्रस्थितवान् गुरुकुलं प्रति प्रस्थितवान् प्रस्थितवान् इति तावत् प्रत्ययः अस्ति साधनमस्ति अत्र वनमार्गेण केन मार्गेण गतवान् वनमार्गेण सः गतवान् अनन्तरदिने इति अव्ययम् अस्ति इति मम चिन्तनमस्ति अनन्तरं दिने समासः अस्ति
अनन्तरम् इति अव्ययम् अस्ति तदनन्तरं दिने इति तत्र दिने इति तत्र सप्तमी तत्र समयस्य तत्र सप्तमी प्रयोगः
परन्तु
किमपि नास्ति वदतु भगिनि अग्रे
परन्तु मध्यमार्गे तस्य भयम् आरब्धम् अत्र भयम् आरब्धम् एतत् विशेषणविशेषम् अस्ति आरब्धम् इति इक्तप्रयोगः अस्ति अत्र कस्य भयम् आरब्धम् अत्र तस्य इति अस्ति तस्य इति राघवस्य इति योजयति कुत्र मध्यमार्गे यत् समये सः गुरुकुलं गच्छति तस्मिन् समये तस्य भयम् आरब्धम्
हा तत्र वने अस्ति तत्र वनप्रदेशे मध्ये कुत्रापि अस्ति सः तस्मिन् समये तत्र किञ्चित् तत्र गुरुकुलं प्रति सः प्रस्थितवान् किञ्चित् अग्रे अपि गतवान् तत्र प्रस्थानसमये तत्र भयः नासीत् किन्तु भयं नासीत् किन्तु किञ्चित् अग्रे गत्वा मध्ये तस्य भयम् आरब्धं तत्र आरब्धम् इति तत्र तप्रत्ययः तत्र पठितं पुस्तकम् आगतः तत्र किं गुरुः आगतः तादृशं तत्र भयम् आरब्धम् इति तत्र पुल्लिङ्गे किं रूपं किं भवति आरब्धम् इति नपुंसकलिङ्गे पुल्लिङ्गे
आरब्धः
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 समीचीनं भगिनि हा अस्तु अग्रे
तदा सः मातुः वचनं स्मृत्वा हे गोपालः इति उच्चैः आहूतवान् तस्य माता पूर्वमेव तम् उक्तवती भयमस्ति चेत् हे गोपाल इति वदतु इति तस्मिन् समये यत् तस्य भयम् आरब्धं तदा सः तस्य मातुः वचनं स्मृतवान् अपि च हे गोपालः इति आहूतवान् इति अत्र आहूतवान्
समीचीनं तावत् तत्र मातुः इति पदस्य विभक्ति का
षष्टिविभक्ति एकवचनं
षष्टिविभक्ति समीचीनम् अपि सम्बोधनम् अस्ति खलु भगिनि अतः तत्र केवलं हे गोपाल तत्र विसर्गः नास्ति, केवलं हि गोपाल इति।
ओ क्षम्यताम्, अहं विसर्गम् उक्तवती वा, क्षम्यताम्।
चिन्ता मास्तु, तत्र हे गोपाल इति तावत् इति उच्चैः आहूतवान्। समीचीनम्, अग्रे।
किञ्चित् समयान्तरं राघवस्य समवयस्कः समवयस्कः कश्चित् बालकः कुतश्चित् तत्र आगतवान्। सः राघवः हे गोपाल इति उच्चैः उक्तवान्। तस्मिन् किञ्चित् समयानन्तरं कोऽपि एकः बालकः तस्य समीपे आगतवान्।
सः कीदृशः बालकः समीपम् आगतवान्?
तस्य बालकस्य नाम, सः कुतः आगच्छति इति किमपि न जानीमः। कश्चित् बालकः कुतश्चित् आगतः
किन्तु तत्र सदृशः अस्ति वा, राघवस्य सदृशः अस्ति वा सः?
आम्, सः समवयस्कः अस्ति। तस्य
समवयस्कः, तत्र वयः, तस्य वयः समानमस्ति। वयः वयस् इति तत्र मन सकारान्तपदं मनः इति मनस् इति, तत्र वयस् वयः, तत्र समानवयः तस्य अस्ति। राघवस्य यत् वयः तमेव वयः एतस्य बालकस्य अपि।
एषः बालकः पृच्छामि वा? परन्तु मध्यमार्गे तस्य भयम् आरब्धं, भयं स्थाने यदि भीति इति वक्तुं शक्नुमः ते चेत् तत्र भीतिम् आरब्धा वा? किं किम्
भीतिः आरब्धा,
भीतिः आरब्धा।
अस्तु, समीचीनं भगिनि। अस्तु, अग्रे क्रिया भगिनि, अग्रे।
सः राघवं दृष्ट्वा किमर्थं माम् आहूतवान् इति पृष्टवान्। सः बालकः यः राघवस्य वयसः अस्ति, समानवयसः अस्ति, वयः अस्ति, यस्य वयः राघवस्य समानः अस्ति, सः आगत्य राघवं पृष्टवान् किमर्थं माम् आहूतवान् इति।
किमर्थं तत्र किं कारणम् इति सः पृष्टवान् इति राघवं पृष्टवान्। समीचीनम्, अग्रे।
तदा राघवः अहम् अतीव भीतः अस्मि इति उक्तवान्। राघवः तं बालकं प्रति उक्तवान्, मम भीतिः अस्ति, ततः अहं हे गोपाल इति उक्तवान्।
समीचीनं, तत्र अतीव भीतः अस्मि, भीतः इति पुनः तत्र तप्रत्ययः, भीतः, मम भीतिः अस्ति, अतः अहं भीतः अस्मि। अग्रे, मम
माता उक्तवती अस्ति यदा भवान् भीतः भवति तदा गोपालम् आह्वयतु इति। सः विवरणं दत्तवान् तं बालकं, मम माता माम् उक्तवती पूर्वं, यदा अहं भीतः भवामि तदा अहं गोपालस्य आह्वयनं, न एतत् सम्यक् नास्ति, यदा
तदा मया गोपालस्य आह्वानं करणीयम्
एतत् सम्यक् तदा मया आह्वानं करणीयम् इति,
आह्वानं करणीयम् इति सा उक्तवती, मम माता उक्तवती।
सः भवता सह आगच्छति इति, सः उक्तवती अहम् आह्वयामि चेत् गोपालः मम गोपालः मया सह आगच्छति
गुरुकुलं पर्यन्तं मम मया सह आगच्छति इति सा उक्तवती। समीचीनम्, अग्रे। अतः
अहं भवन्तम् आहूतवान् इति उक्तवान्, तथैव अहं गोपालम् इति उक्तवान् इति सः वदति.
हा समीचीनम्. अतः एव तत्र एतदेव कारणम् अस्ति, एतेन कारणेन अहं भवतः आह्वानं कृतवान्, अतः अहं भवन्तम् आहूतवान् इति. समीचीनं भगिनि. अस्तु, शुभदः भगिनि, नमस्कारः. कथां पठन्तः स्मः तत्र भगवती विश्वासः इति.
नमस्कारः.
नमस्कारः भगिनि. अस्तु, इदानीं श्रीप्रिया भगिनी अग्रे, तत्र भवती तस्मिन् समये नास्ति इति मन्ये भगिनि, एकवारं यदि इच्छति चेत् एकवारं पूर्णपरिच्छेदं पठित्वा तदनन्तरं किञ्चित् विवृणोतु.
गोपालः, भवान् भीतः मा भवतु, अहं प्रतिदिनं भवता सह आगमिष्यामि इति उक्तवान्. तेन सह गुरुकुलपर्यन्तम् आगतवान् अपि. राघवः सायं गृहम् आगत्य मात्रे सर्वं निवेदितवान्. ततः प्रतिदिनं गोपालः राघवेण सह गुरुकुलपर्यन्तं गच्छति स्म. प्रत्यागमनसमये गृहपर्यन्तं तं प्रापय्य गच्छति स्म.
समीचीनम्.
अतः अहं भवन्तम् आहूतवान्. यदा बालकः वदति माता उक्तवती इति कारणेन अहं भवन्तम् आहूतवान् इति, गोपालः वदति इतः परं भवान् भीतः मा भवतु, भीतिं मा अनुभवतु. अत्रापि भीतः इति क्ता प्रत्ययः अस्ति, भवान् इति पुल्लिङ्गपदम् अस्ति इति कारणेन
तत्र विशेषणं भवान् भीतः, विशेषणं भीतः,
भीतिं मा अनुभवतु इति. अहं प्रतिदिनं यदा वनमार्गेण भवान् प्रतिदिनं गच्छति तदा अहं सर्वदा भवता सह गुरुकुलपर्यन्तम् आगमिष्यामि, आगच्छामि इति वदति. उक्तवान् उक्तवान् इति क्तवतु प्रत्ययः. अग्रे अग्रे वदामि वा? तेन सह गुरुकुलपर्यन्तम् आगतवान् अपि. यथा एतादृशम् उक्तवान् तथैव सः कृतवान् अपि. अतः प्रतिदिनं सः गोपालः बालकेन सह गुरुकुलपर्यन्तं गच्छति अपि.
हा, तत्र अपि किमर्थम् इत्युक्ते केवलं न उक्तवान् न किमपि कृतवान्, किन्तु उक्तवान् अपि कृतवान्, यत् उक्तवान् तदेव सः कृतवान्. अतः तत्र गुरुकुलपर्यन्तम् आगतवान् अपि. समीचीनम्. अस्तु, अग्रे.
राघवः सायं गृहम् आगत्य यत्किमपि अभवत् मार्गे तत्सर्वं राघवः मात्रं विवृणोति. मातरं विवृणोति. सम्यक् मात्रे विवृणोति.
हा, यतोहि तत्र विवृणोति इति तस्य कर्मपदं तु नास्ति खलु, तत्र किं विवृणोति इति. हा, तत्र अतः तत्र अत्र निवेदितवान् इति नाम तत्र कस्मै निवेदितवान्, तत्र कस्मै तत्र विवरणं दत्तवान्, मात्रे विवरणं दत्तवान्.
मातरं
प्रयोगं कुर्मः. मातरे, वदतु भगिनि, मातरं
मातरं विवृणोति इति न वक्तुं शक्नुमः वा महोदय? यदा वदति
वदति मातरं वदति इति तत् कर्तुं शक्नुमः, किन्तु विवृणोति इति
तत्र निवेदनं समर्पणम् इति अर्थे भवति इति कृत्वा तत्र चतुर्थी इति किन्तु विवृणोति इति समर्पणे निवेदनं
न कर्तुं शक्नुमः. अतः
तत्र मातरम् इति भवितुम् अर्हति,
किन्तु मातरं विवृतवान् इति अस्ति चेत् तत्र किं विकर्मक किं विवृतवान् इति भवति खलु कर्मपदम्.
ओ, मातरं विवृणोति, मातरं विवृणोति सर्वम् इति भवति चेत्. अस्तु, मातरं सर्वम् इति
तत्र इदानीं कथा इदानीं कथां पठामः, कथायाः अर्थः अस्ति. इदानीं प्रश्नः किं भवति, कथायाः अर्थं विवृणोतु इति प्रश्नः भवितुम् अर्हति खलु. अत्र कर्मपदं किमस्ति
अर्थं
किं विवृणोतु
कथायाः
कथायाः अर्थः यः अस्ति तं विवृणोतु इति अस्ति अतः तत्र कर्मपदं यस्य विवरणं कुर्मः तदेव कर्मपदं भवति खलु अतः तत्र मातरं विवृणोति चेत् तत्र किं माता कीदृशी इति तस्मै तादृशं विषयस्य विवरणं भवति खलु किन्तु तत्र साक्षात् मातरं प्रति किमपि वचनं भवति इति न भवति खलु
ओ तर्हि तत्र सर्वं विवृणोति इति न भवति न भवितुमर्हति वा
सर्वं विवृणोति इति किन्तु तत्र मात्रे मात्रे इति अस्ति चेत् तत्र प्रायशः मात्रे विवृणोति इति तदपि स्थापितुं शक्नुमः तत्र ध्यानक्रिया अस्ति चेत् सर्वदा चतुर्थी विभक्ति इति अस्ति किन्तु अन्यत्र अपि चतुर्थी स्थापितुं शक्नुमः खलु अतः तत्र निवेदितवान् अथवा तत्र किम् अन्यत् किमपि किं स्थापितुं शक्नुमः इदानीं न जानामि किन्तु अस्तु
अधुना भवान् किम् अंशद्वयम् उक्तवान् किल तत्र द्विकर्मक भवति तद्
द्विकर्मक न भवति विवृणोति इति द्विकर्मक नास्ति
नास्ति अतः अपि च
यदि
तत्र
वदति वदति इति तु द्विकर्मक अस्ति इति मन्ये अतः तत् कर्तुं शक्नुमः अतः प्रिया भगिनी तत्र वदति इति स्वीकरोतु श्रीप्रिया भगिनी
महोदय क्षम्यतां वदति विवृणोति प्रायः यत्र कुत्रापि समानार्थकौ पदानि सन्ति तत्र
तदपि अस्ति भगिनि तद् सत्यमेव तदपि सत्यमेव अस्तु अतु अस्तु तद् तद् चिन्तनं स्वीकृत्य अस्तु तत्र मातरं सर्वं विवृणोति इति स्वीकुर्मः तर्हि अस्तु भगिनि
किन्तु क्लेशः एव इदानीं अस्ति महोदय
अस्ति मात्र निवेदितवान् तत्र सम्यक् ज्ञानं भवति अस्तु चिन्ता मास्तु अग्रे सरामः तर्हि तत्र
मातरं वदति इत्येव इदानीं वदामि महोदय भवान् अग्रिमसप्ताहे कृपया सूचयति वा महोदय
अस्तु भगिनि हा विवृणोति इति तत्र तस्य यथा भवती उक्तवती तत्र प्रायशः तत्र अर्थसमानम् अस्ति इति कृत्वा प्रायशः विकर्मक इति चिन्तयितुं शक्नुमः अस्तु पृष्ट्वा वदामि भगिनि
धन्यवादः
अग्रे
अग्रे ततः प्रतिदिनं गोपालः राघवेण सह गुरुकुलपर्यन्तं गच्छति स्म तदनन्तरम् एतादृशम् उक्त्वा प्रतिदिनं ततः इत्युक्ते अनन्तरं ततः परम् इति स्वीकर्तुं शक्नुमः तदनन्तरं प्रतिदिनं गोपालः वनमार्गेण यथा गोपालः यदा बालकः राघवः गुरुकुल प्रति गच्छति तदा सर्वदा गोपालः अपि तेन सह गुरुकुलपर्यन्तं गच्छति प्रत्यागमनसमये अपि सः गृहपर्यन्तं तं तेन सह राघवेण सह आगत्य तं गृहे प्रापयति
गृहं
प्रापयति
तत्र प्रापयति इति तस्य ल्यबन्तमस्ति प्रापय्य इति
निजन्तरूपं
तत्र निजन्तरूपं सत्यं भगिनि तत्र केवलं प्राप्नोति अस्ति चेत् तस्य ल्यबन्तरूपं किमस्ति
प्राप्नोति इत्यस्य
ल्यबन्तं प्राप्य 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 इति किन्तु अत्र नीच अस्ति इति कृत्वा तत्र प्रापय्य इति भवति यतोहि गोपालः राघवं गृहं प्रापय्य तत्र राघवं राघवं प्रापय्य सः गच्छति स्म अतः नीच अस्ति इति कृत्वा तत्र जबन्ते तत्र प्राप्य इति नास्ति किन्तु प्रापय्य इति अस्तु समीचीनम् अस्तु धन्यवादः
पूर्वस्मिन् परिच्छेदे अनन्तरदिने इति अस्ति खलु महोदय, अन्यस्मिन् दिने इति वक्तुं शक्नुमः वा? अन्यस्मिन् दिने इति
तत्र अन्य अनन्तरदिने नाम ओ अनन्तरदिने नाम तत्र अन्यस्मिन् दिने इति नास्ति भगिनि, तत्र अनन्तरदिने नाम तस्य अग्रिमे दिने एव.
अस्तु अस्तु महोदय.
अतः तत्र यस्मिन् दिने तत्र माता उक्तवती तस्य अग्रिमे दिने एव इति, तत्र अनन्तर इत्युक्ते तत्र अनन्तर इति तत्र तत्र समयस्य निश्चयः न भवति, तत्र अनन्तरं तत्र निमेषद्वयं वा अथवा एकघण्टा अनन्तरं वा इति तत्र निश्चयः नास्ति, किन्तु यत्र अनन्तरदिनम् इति यत्र भवति नाम अग्रिमे दिने एव इति तदपि भवति, अत्र प्रायशः सः एव प्रयोगः. माता अद्य उक्तवती चेत् श्वः आरभ्य एव तत्र, श्वः यदि सः गमिष्यति तस्मिन् समये सः तत्र आह्वयति इति चिन्तनम्.
अस्तु महोदय. अत्र
वदतु
कम्पनी इति वदामः खलु, कम्पनी मम कम्पनी लैक् कम्स् अलाङ्ग् वित् मी, तत्र कम्पनी इति तेन सह इत्येव प्रयोक्तुं शक्यते वा? अत्र अन्यत् किमपि वक्तुं शक्यते,
अन्यत् किमपि अस्ति इति तत्र इदानीं किमपि मनसि न आगच्छति, अन्य कोऽपि किमपि
किं
शक्नुवन्ति वा? कम्पनी तत्र हि गेव् हिम् कम्पनी इति अर्थे, तत्र अकम्पनीड् हिम् इति अर्थे, तत्र अन्य क्रियापदमस्ति वा? तत्र तेन सह गच्छति इति एव अस्ति, किन्तु तत्र सम्यक् किन्तु सम्यक्तया जानाति वा तत्र सङ्गच्छति इति? सङ्गच्छति इति तत् किं तत् समीचीनं वा न जानामि भगिनि. अकम्पनी इति किं भगिनि?
सङ्गच्छति इति समीचीनम् इति मन्ये महोदय. सङ्गम् इत्युक्ते
मिलित्वा
कृत् इति भवति, सङ्गच्छति
केवलं तदेव मनसि आगच्छति भगिनि.
सङ्गच्छति सम्यक्.
अस्तु महोदय, धन्यवादः धन्यवादः.
किन्तु तत्र सङ्गच्छति इति अस्ति, किन्तु तत्र तस्य सङ्गच्छति इति तत्र प्रयोगः कः इति न जानामि. तेन सह गच्छति इति,
तेन सह सङ्गच्छति
अस्ति चेत् तत्र किमर्थं
सङ्गच्छति इत्युक्ते तेन सह इति अहं
तादृशं. किन्तु किन्तु तद् स्वीकर्तुं शक्नुमः वेदा भगिनी, किन्तु प्रश्नः अस्ति सङ्गच्छति. इदानीं इदानीं स्वीकरोतु तत्र गोपालः सङ्गच्छति, किन्तु सः राघवेन सह गच्छति इति तत्र कथं वदामः? किन्तु वाक्ये सङ्गच्छति यदि अस्ति चेत् अतः प्रयोगः क
प्रयोगः
इति न
गोपालः
यदि जानीमः कोऽपि कथं
राघवं सङ्गच्छति वा गोपालः राघवं?
न जानामि, अतः उक्तवान् न जानामि.
ओके,
गोपालः राघवः च सङ्गच्छतः.
प्रायशः समीचीनं समीचीनं भगिनि, सुभदा भगिनि धन्यवादः. अतः तत्र च इति उपयुज्य समूहं कृत्वा सङ्गच्छतः इति. अस्तु
धन्यवादः.
समीचीनम् अस्तु, सुभदा भगिनि धन्यवादः. इदानीं प्रयोगः कीदृशः इति अवगतवन्तः. अस्तु समीचीनम्. अस्तु, अत्र एतावत्पर्यन्तं तत्र मधु महोदय तत्र एकवारं भवान् तत्र परिच्छेदं पठति वा, तदनन्तरं तत्र शुभदा भगिनी विवृणोति.
आं महोदय.
गच्छता कालेन इति
गच्छता कालेन राघव गोपालयोः मित्रत्वं प्रबुद्धम्. अत्रान्तरे राघवस्य गुरोः पुत्रस्य जन्मदिनं सन्निहितम् आसीत्. तदा तस्मिन् गुरुकुले ये छात्राः पठन्ति ते सर्वे अपि गुरुपुत्राय किमपि उपायं दातुम् इष्टवन्तः. राघव अपि मातरम् उक्तवान् अम्ब आचार्यस्य पुत्रस्य जन्मदिनम् अस्ति तदर्थं सर्वे किमपि उपायं यच्छन्ति मया अपि किमपि दातव्यं खलु इति
अस्तु तत्र भवानेव तत्र किञ्चित् विवरणं कर्तुम् इच्छति वा अथवा
आं महोदय प्रयत्नं करोमि गच्छता कालेन तदनन्तरं किञ्चित् समयानन्तरं राघव
गच्छता कालेन इत्युक्ते इन् कोर्स् आफ् टैम् इति अर्थः गच्छता कालेन कालं तत्र कालः तत्र गच्छन् तत्र किमस्ति गच्छता कालेन तत्र तृतीयविभक्तिरूपम् अस्ति तत्र प्रथमविभक्ति किमस्ति कोऽपि वदति वा
गच्छता कालेन
अनेकोपि वदति वा गच्छता कालेन इति पदस्य तत्र प्रथमविभक्तिरूपं किं
गच्छन् कालः
हा समीचीनं हा गच्छन् कालः कालः कीदृशः गच्छन् कालः अस्ति तत्र कालः एकस्मिन् समये तिष्ठति वा न खलु कालः अग्रे गच्छति एव सर्वदा गच्छति अतः गच्छन् कालः गच्छता कालेन तेन कारणेन तत्र कालः सर्वदा अग्रे गच्छति इति कृत्वा तत्र गच्छता कालेन किम् अभवत् इन् कोर्स् आफ् टैम् किम् अभवत् राघव गोपालयोः
मित्रत्वं प्रबुद्धं
षष्टि द्विवचनं
मित्रत्वं प्रबुद्धं प्रबुद्धम् इत्युक्ते
अधिकम् अधिकम् अभवत्
अधिकम् अभवत्
मित्रत्वं प्रवृद्धं तस्य वर्धनम् अभवत्
अभवत् अत्रान्तरे राघव अत्रान्तरे अत्रान्तरे अनन्तरे
अत्रान्तरे इत्युक्ते तत्र एकदा इति अर्थः गच्छता कालेन मध्ये तत्र मध्ये कदापि तत्र किम् अभवत्
राघवस्य
तत्र कदा इति न जानीमः तत्र कदाचित् इति
कदाचित् समये अस्तु राघवस्य गुरोः पुत्रस्य जन्मदिनं सहितमासीत्
सन्निहितं सन्निहितं नाम समीपं समीपम् आगतम् सन्निहितं तत्र समीपम् अस्ति तत्र जन्मदिनस्य समीपम् अभवत् जन्मदिनं तत्र अग्रिमे सप्ताहे भवति वा तत्र किमपि किन्तु तद् बहु शीघ्रम् अस्ति तत्र जन्मदिनं भवति इति अस्ति स्थितिः
तदा तस्मिन् गुरुकुले ये छात्राः पठन्ति ते सर्वे अपि गुरुपुत्राय उपायनं दातुम् इष्टवन्तः सो तत्र
दातुम् इति तत्र दातुमस्ति धानकार्यमस्ति धानकार्यमस्ति चेत् तत्र किं भवति यत्र धानकार्यमस्ति तत्र चतुर्थी विभक्ति इति जानीमः कस्मै दातुम् इष्टवन्तः
तस्तु उपायं दातुम् इष्टवन्तः
उपायनं नाम गिफ्ट् उपायनं दातुम् इष्टवन्तः छात्राः कस्मै दातुम् इष्टवन्तः
गोपालं
न कस्मै इत्युक्ते तत्र अहं भवते पुस्तकं ददामि अहं किं ददामि पुस्तकं किन्तु कस्मै ददामि भवते चतुर्थे अत्र चतुर्थीभक्तिपदं किमस्ति
अत्र गुरुपुत्र
तदा तस्मिन् गुरुकुले ये छात्राः पठन्ति ते सर्वे अपि गुरुपुत्राय
किमपि
गुरुपुत्र इति चतुर्थी कस्मै दातुम् इष्टवन्तः गुरुपुत्राय किमपि उपायनं दातुम् इष्टवन्तः यतोहि तस्य एव जन्मदिनमस्ति खलु
आम् आम् महोदय उपायनम्
गुरुपुत्रस्य जन्मदिनम् अतः गुरुपुत्राय किमपि उपायनं दातुम् इष्टवन्तः अग्रे
उपायम् इष्टवन्तः राघवः अपि मातरम् उक्तवान् राघवः मातरम् उक्तवान् अम्ब आचार्याः पुत्रस्य जन्मदिनमस्ति, अहमपि किमपि उपायनं करणीयमिति. तदर्थं
मया अपि किमपि दातव्यम् अथवा अहमपि उपायनं दातुम् इच्छामि
इच्छामि
सः इति सर्वे तत्र दातुम् इच्छन्ति, अहमपि दातुम् इच्छामि, अतः मयापि किमपि दातव्यं खलु. समीचीनं भवति यदि वयमपि किमपि दद्मः तदा सम्यक् भवति इति सः उक्तवान्. समीचीनं महोदय, अस्तु धन्यवादः. अस्तु अग्रे सुभदा भगिनी.
आं महोदय, माता खेदेन पुत्र वयं किं दातुं शक्नुमः यतः वयं तु निर्धनाः इति उक्तवती. ततः
राग किमपि नास्ति तत्र, तत्र किमपि नास्ति वक्तुम्.
अस्तु, ततः राघवः तूष्णीं शालां प्रस्थितवान्. सः एकमेकं वाक्यं
उक्तम्. हा, तत्र समयः नास्ति इति तत्र पश्यामि भगिनि, तावत् एव. पुत्र यत्र क्लेशः अस्ति तत्र किमपि वदतु.
यदा माता खेदेन उक्तवती यतः वयं निर्धनाः स्मः, वयं किमपि दातुं न शक्नुमः, तदा राघवः मौनं धारयित्वा शालां प्रति गतवान्, शालां प्रस्थितवान्. मौनं धरित्वा शालां प्रस्थितवान् इत्युक्ते शालां प्रति गतवान्. मार्गे मिलितः गोपालः म्लानवदनं राघवं दृष्ट्वा, भोः मित्र, किम् अभवत्, किमर्थं व्याकुलः अस्ति इति पृष्टवान्. मार्गे मिलितः गोपालः, अत्रापि शत्रन्त् अस्ति, तत्र मार्गे मिलितः गोपालः यदा
मिलितः
तप्तप्रत्ययः
क्षम्यतां.
गोपालः म्लानवदनं राघवं दृष्ट्वा, म्लानवदनम् इत्युक्ते सः दुःखितः अभवत्, तस्य दुःखी वदनं दृष्ट्वा
राघवस्य
दुःखितं वदनं,
यस्य वदनं यस्य वदनं म्लानम् अस्ति सः
म्लानवदनः
इति प्रायशः, यतोहि तत्र राघवं, राघवः इति पदस्य विशेषणम् अस्ति.
विशेषणं म्लानवदनं राघवं, तस्य दुःखितः वदनं दृष्ट्वा, दुःखितं वदनं दृष्ट्वा गोपालः अवदत्, पृष्टवान्, भोः मित्र, किम् अभवत्, किमर्थं व्याकुलः अस्ति, भवतः दुःखस्य कारणं किम् इति सः पृष्टवान्. राघवः खेदस्य कारणम् उक्तवान्, किमर्थं दुःखितः अस्मि इति राघवः उक्तवान्. तदा गोपालः भवान् अत्र एव तिष्ठतु, अहम् इदानीमेव आगच्छामि इत्युक्त्वा कुत्रापि गतवान्. सः गोपालम् अवदत् भवान् अत्र एव तिष्ठतु, अहम् इदानीम् एव किमपि नास्ति महोदय,
इदानीमेव आगच्छामि,
इदानीमेव आगच्छामि इति उक्त्वा कुत्रापि गतवान् सः. पुनः
तत्र किमपि नास्ति,
नास्ति. पुनः प्रत्यागमनसमये तस्य हस्ते दध्नापूरितं लघुपात्रम् आसीत्. यदा सः प्रत्यागतवान् तदा तस्य हस्ते एकं लघुपात्रम् आसीत्. तस्मिन् पात्रे दधिः आसीत्, तत् पात्रं तु दध्ना पूरितम् आसीत्.
तत्र पूरितं, पूरितं केन पूरितम् इति, तत्र जलेन पूरितं तादृशं भवति तादृशप्रयोगः. अतः तत्र दधि इति पदस्य तृतीया
दध्नापूरितं
लघुपात्रम्
आसीत्. तत् पात्रं राघवाय दत्त्वा, एतत् पात्रं भवतः गुरोः पुत्राय ददातु इति उक्तवान्. सः दध्नापूरितं लघुपात्रं राघवाय दत्तवान् अपि च उक्तवान् एतत् पात्रम् एतत् दधिः गुरोः पुत्राय ददातु इति.
हा तत्र अतः तत्र किं कृतवान् तत्र गुरोः पुत्राय तत्र
उपायनरूपेण दत्तवान्.
हा एतत् पात्रं ददातु इति सः उक्तवान्. समीचीनं भगिनि. हा अस्तु अस्तु अग्रेपि पठितुम् इच्छति वा?
पठामि महोदय.
अस्तु किन्तु तत्र सुलभवाक्यमस्ति चेत् विवरणं मास्तु, यत्र क्लेशः अस्ति तत्र किमपि वदतु.
तस्मिन् दिने सर्वे अपि छात्राः गुरुपुत्राय स्वेन आनीतम् उपायनं दत्तवन्तः. स्वेन इत्युक्ते स्वस्य वा?
तत्र स्वयमेव तत्र यत् आनीतवन्तः तदेव दत्तवन्तः. तत्र अन्य कोऽपि तत्र अन्येन आनीतम् उपायनं न दत्तवन्तः, किन्तु स्वेन आनीतम् उपायनं दत्तवन्तः.
राघवः अपि दधिपात्रं तस्मै दत्तवान्. अनन्तरं सर्वे भोजनार्थम् उपविष्टवन्तः. सम्भोजनम् आसीत् जन्मदिनस्य कृते, अतः सर्वे भोजनार्थम् उपविष्टवन्तः, सर्वे छात्राः उपविष्टवन्तः. परन्तु भोजने सर्वेषां कृते दधि अपर्याप्तम् अभवत्. दधि लघुपात्रे आसीत्, परन्तु अतः छात्राणां संख्या तु अधिकम् आसीत्, अतः लघुपात्रे
इदानीं किन्तु भगिनी किन्तु एतावत् तत्र राघवस्य पात्रस्य विषयः एतावत् नास्ति, केवलं तत्र
दधिः
तत्र अपर्याप्तम् अभवत् तावदेव.
भोजने सर्वेषां कृते दधि अपर्याप्तम् अभवत्. तदा आचार्यः राघवेण आनीतं दधि राघवेण आनीतं दधि स्मृत्वा तत् आनयन्तु इति उक्तवान्. तत् आनीय परिवेषणम् आरब्धवन्तः. इदानीं यदा दधिः अपर्याप्तम् अभवत् तदा राघवेण आनीतं दधि सर्वेषां कृते
तस्य परिवेषणं कृतं,
तस्य परिवेषणम्
आरब्धवन्तः अथवा तस्य परिवेषणम् आरब्धम् अपि
आरब्धम्. परम् अहो आश्चर्यम्
अग्रे तत्र अन्य कोऽपि करोतु. अस्तु तत्र शोभा भगिनी तत्र अग्रिमपरिचितं करोति वा, तदनन्तरं शीघ्रतया तत्र यत्र क्लेशः नास्ति किमपि मा वद न वक्तव्यं, यत्र किमपि वक्तव्यमस्ति तत् तत्रैव किमपि वदतु. अस्तु शोभा भगिनी नास्ति वा? अस्तु तर्हि तत्र
परम् अहो आश्चर्यं यथा यथा तस्मात् पात्रात् दधि स्वीकृतं तथा तथा पुनः तत् पूर्णं भवति स्म. परं तत्पश्चात् आश्चर्यम् एकः आश्चर्यम् अभवत् यथा यथा तस्मात् पात्रात् दधि स्वीकृतं यथा यथा तत् पात्रात् दधि आनीतं वा न किं किं वदामि दधि
स्वीकृतवन्तः
तदा तथा पुनः तत् पूर्णं भवति स्म.
तत् नाम किं पूर्णं भवति स्म?
पात्रं पूर्णं भवति.
पात्रं पूर्णं भवति. समीचीनं.
दृष्ट्वा सर्वे अपि महोदय
अग्रे समीचीनं भगिनि.
तद्दृष्ट्वा सर्वे अपि विस्मिताः अभवन्. तद् दृष्ट्वा
चकिताः अभवन् सर्वे.
गुरुः राघवम् आहूय, राघव केन दत्तम् एतत् दधिपात्रं? गुरु राघवं प्रति उक्तवान्,
राघवं पृष्टवान्,
राघव केन दत्तम् एतत् दधिपात्रं? एतत् दधिपात्रं
समीचीनम् अग्रे
केन दत्तम् इति पृष्टवान् राघवः. एतत् पात्रं वने स्थितः मम स्नेहितः गोपालः दत्तवान् इति उक्तवान्। राघव उक्तवान् एतत् पात्रं एक मम सखा अस्ति वने, सः दत्तवान् इति उक्तम्। आश्चर्यचकिताः ते सर्वेपि वनं गत्वा गोपालम् आहूतवन्तः। ते सर्वे आश्चर्यचकिताः अभवन्,
तत्र किमपि नास्ति विवरणं कर्तुं,
परन्तु गोपालः न आगतवान् एव। गोपालम् आहूतवन्तः परन्तु गोपालः न आगतवान्। राघवः अपि उच्चैः गोपाल गोपाल इति आहूतवान्। गोपालः न दृष्टः, गोपालः न आगतवान्, परं गोपालस्य कण्ठध्वनिः श्रुतः। गोपालः
कण्ठध्वनिः
एव श्रुतवन्तः भो बालकाः,
ध्वनिमेव श्रुतवन्तः, कण्ठध्वनिमेव श्रुतवन्तः
भो बालकाः। राघवाय दधिपात्रम् अहमेव दत्तवान्, अहमेव राघवं दधिपात्रं दत्तवान् इति सः अशीरवाण्या श्रुतवन्तः गोपालस्य कण्ठध्वनि
श्रुतवन्तः इति अस्ति, तृतीया अस्ति, किमर्थं तृतीया
उक्तवान् इति,
किन्तु किमर्थं तृतीया अस्ति अशरीरवाण्या इति अस्ति, तृतीया किमर्थम्
इति सः अशरीरवाण्या उक्तवान्।
तृतीया किमर्थम्
तव तु प्रत्ययः तदेव न महोदय, न
उक्तवान् तव तु अस्ति, किन्तु अशरीरवाण्या इति तृतीया विभक्ति अस्ति खलु, तत्र
इन्स्ट्रुमेण्ट् साधनं
माध्यमं समीचीनं।
तत् श्रुत्वा विस्मिताः सर्वे अपि राघवं भृशम् अभिनन्दितवन्तः। तत् श्रुत्वा सर्वे विस्मिताः अभवत् अपि च
अभवन्
राघवं भृशम् इत्युक्ते बहुधा
बहु
बहु
अभिनन्दनं कृतवन्तः। अस्तु समीचीनं भगिनि, अस्तु धन्यवादः,
धन्यवादः।
अस्तु तर्हि तत्र अस्तु तर्हि अतः तत्र कथायाः पठनं जातं, किन्तु तत्र मध्ये मध्ये कुत्र कुत्र विधिलिङ्गकारस्य प्रयोगं कर्तुं शक्नुमः इति तत्र अग्रिमे वर्गे पश्यामः। तर्हि अस्तु तर्हि तत्र अन्ते तत्र प्रिया भगिनी तत्र अन्ते शान्तिमन्त्रे वदति वा भगिनि।
अस्तु महोदय, सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्। ॐ शान्तिः शान्तिः शान्तिः।
धन्यवादः महोदय।